वीणामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवती धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उदोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृणया या ते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि चाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छावदामसि यता नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोच ददि भक्ता प्रथमो दैव्योऽभिषक् अहेतश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसत्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्तियोर्जाम् याश्च देहस्त इषवः पराता भगवो वपा अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्याणामुखा शिवो नः सुमना भव विज्यम् धनुक्कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय त्विषीमते पतीनाम् पतये नमो नमो बभ्रुषाय विव्यातिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततावीने क्षेत्राणाम् पतये नमो नमः सूताया हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नमः उच्चैर्घोषाया क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिताविभ्यो जिहागुंसद्भ्यो मुष्टताम् पतये नमो नमोऽसिमद्भ्यो नक्तञ्चरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिशराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो दन्वाविभ्यश्च वो नमो नम आदन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रतपदेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शिधिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रजश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो दृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेभ्याय च गोल्याय च नमः पार्याय च भार्याय च नमः कतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च भेण्याय च नमः सिकर्त्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किवंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः పాగుంసవ్యాయ జలజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగుణమానాయ చ విఘ్నతే చ నమః ఆఖిలతే చ ప్రఖిలతే చ నమో వక్కిలికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధదస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మా వేర్మా రోమో ఏషాం కించ నామ మత్ యాతే రుద్ర శివా తనో శివా విశ్వా భేషజీ శివా రుద్రస్య భేషజీ తయా నో మృణ జీవసే ఇమాగుం రుద్రాయ తవసే కపద్దినే క్షయద్వీరాయ ప్రవరామహే మతిం యథానశ్యమసద్విపదే చ దుష్పదే విశ్వం పుష్టం గ్రామి అస్మిన్ననాతురం మృడానో రుద్రోతనోమయస్కృతి క్షయద్వీరాయ నమసా విదేమతే యచ్ఛం చయోశ్చ మనురాయ జే పితా తదశ్యామతవ రుద్ర ప్రణీతౌ మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదీర్పితరం మోత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషిమానో గోషుమానో అశ్వేషురీరిషః వీరాన్మానో రుద్రవామితో వదీర్ అవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్న ఉత పోరుషగ్నే క్షయద్వీరాయ సున్నమస్మేతే అస్తు రక్షా చ నో అలి చ దేవ బ్రూహ్యదా చ నశర్మ యచ్చ దివర్హా సుహిశ్రుతం గత్త సదం యువానం మృగన్న భీమముపహత్నుముగ్రం మృడా జరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతుర్వృణక్తు పరిత్వేషస్య దుర్మదిరకాయో అవస్థిరామగవద్భ్యస్తనుష్వమీడ్వస్తోకాయతనయాయ మృడయా మీడుష్టమశివతమశివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్యం ఆచర పినాకం బిభ్రదాగహీ వికిరిద విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః సామీశానో భగవ పరాచీనాముఖాకృతి సహస్రాణి సహస్రశో యే రుద్ర అధిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవ అధి నీలగ్రీవాశ్రితి కంఠా శర్వా అదః క్షమాచరాః నీలగ్రీవాశ్రితి కంఠాదివగుం రుద్ర ఉపశ్రుతాః యే వృక్షేషు సత్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాసక్కపర్దినః యే అన్యేషు వివిద్యంతి పాత్రేషు పిబతో జనాన్ యే పతాం పదిరక్షయ ఐలభృదాయవ్యుదః యే తీర్థాని ప్రచరంతి శృకావంతో నిషంగిణః ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావిదస్థిరే तेषागुं सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेशेर्दशो देशेर्दशोर्वासेभ्यो नमस्ते नो मृणयन्तु देयम् विष्मो यस्य नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दना नृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सुय ओषधीषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मज्ञायान्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि अश्वशुसुदन्वायो विश्वस्य क्षय दिवे जजस्य यक्ष्वामहेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रचितिश्च मे भेदिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च मादेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्बश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे भस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वृत्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धश्च मे कृतम् च मे कृतश्च मे मतश्च मे सुमतश्च मे शम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतश्च मे విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శేణం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే ఓర్చ మే సోనృత చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధశ్చ మే సపేదశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జయత్రం చ మాద్భృత్యం చ మే రయశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షిరిశ్చ మే కోయవాస్య మే నం చ మే క్షుచ్చ మే ేహయశ్చ మేయవాశ మే మాశాశ మే తిలాశ మే ముద్గాశ్చ మే ఖల్వాశ మే గోధూమాశ మే మథురాశ మే ప్రియంగవశ్చ మేణవశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్మాశ్చ మే మృత్తికాశ్చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మ ఆపశ్చ మే విరుధశ్చ మ ఔషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతా విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మ ఏమశ్చ మ ఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సరితా చ మ ఇంద్రశ్చ మే సరస్వతే చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినో చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివే చ మ ఇంద్రశ్చ మే అంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మే దాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ మ ఆగ్రయణశ్చ మే వైష్దేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుదుగ్రహాశ్చ మే త్రిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైష్దేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాక్ ేవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదశ్చ మే దృష్ణయాశ్చ మే ಶ್ರುತಶ್ಚ ಮೇ ಚಮಸಾಶ್ಚ ಮೇ ಗ್ರಾವಾಣಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮೌಪರವಾಶ್ಚ ಮೇ ಋಷಭಣೇ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾನಿ ಚ ಮೇ ಪೋತ ವೃಕ್ಷ ಮ ಆಘವನೀಯಶ್ಚ ಮ ಆಗ್ನೇಂದ್ರಂ ಚ ಮೇ ಅವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶ ಪಚತಾಶ್ಚ ಮೇವ ಬೃಹದಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಧರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇ ದಿಶ್ಚ ಮೇ ದಿಶ್ಚ ಮೇ ದ್ಯೋಶ್ಚ ಮೇ ಶಕ್ವರೇರಂಗುಲಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಚ್ಚ ಮೇ ಸಾಮ ಚ ಮೇ ಸೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮರುತುಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ವೃಷ್ಟ್ಯಾ ಬೃಹದ್ರತಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾಂ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಯ ಮೇ ದಿತ್ಯೌಹೇ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಯ ಮೇ ತುರ್ಯೌಹೇ ಚ ಮೇ ಪಷ್ಟವಾಚ್ಯ ಮೇ ಪಷ್ಟೌಹೇ ಚ ಮುಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಋಷಭಶ್ಚ ಮೇ ದೇಹಶ್ಚ ಮೇ ನಗ್ವಾಂಚ ಮೇ ಧೇನುಶ್ಚ ಮಾಯುರ್ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಧ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಗುಶ್ರೋತ್ರೈ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾಶ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕವಿಪುಂಶದಶ್ಚ ಮೇ ತ್ರಯೋವಿಪುಂಶದಶ್ಚ ಮೇ ಪಂಚವಿಪುಂಶದಶ್ಚ ಮೇ ಸಪ್ತವಿಪುಂಶದಶ್ಚ ಮೇ ನವ ವಿಪುಂಶದಶ್ಚ ಮ ಏಕತ್ರಿಪುಂಶಚ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಪುಂಶಚ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಪುಂಶದಶ್ಚ ಮೇ ಚತುರ್ವಿಪುಂಶದಶ್ಚ ಮೇಷ್ಟಾವಿಪುಂಶದಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಪುಂಶಚ್ಚ ಮೇ ಷಟ್ರಿಪುಂಶಚ್ಚ ಮೇ ಚತ್ವಾರಿಪುಂಶಚ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಪುಂಶ ಶ್ಚ ಮೇಷ್ಟಾ ಚತ್ವಾರಿಪುಂಶಚ್ಚ ಮೇ ವಾಜಶ್ಚ ಪ್ರಥಮಶ್ಚ ಬ್ರಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುವಶ್ಚ ಮೂರ್ಧಾ ಚ ಯಸ್ನಿಯಶ್ಚಾನ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭೌವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾದೇವೋರ್ಮನುರ್ಯಜ್ಞೇತೃಹಸ್ಪತಿರುಕ್ತಾ ಮದಾನಿ ಶಗುಂ ತ್ರಿಷದ್ವಿಶ್ವೇ ದೇವಾಸೋ ಸವಾಚ ಪೃಥಿವೀ ಮಾತರ್ಮಾ ಮಾಹಿಗುಂಸೇರ್ ಮಧುಮನಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವದಿಷ್ಯಾಮಿ ಮಧುಮತೀಂ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾ ಶಗುಂ ಶುಶ್ರೂಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯಸ್ತಂ ಮಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯೈ ಪಿತರೋ ನು ಮದಂತು ಓಂ ಶಾಂತಿ 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 ಓಂ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ಗಾತೈ ಯಜ್ಞಾಯ ಗಾತೈ ಯಜ್ಞಪತಯೇ ದೇವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ऊर्ध्वं जगातु भेषजं शन्नोऽस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अथोऽज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्भवुदैर्पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् व्यक्रामत् शासनानशने अपि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्छत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्मः शरद्भविः सप्तास्यासन् परिदयः त्रिसप्त समिदकृताः देवाय यज्ञम् तन्वानाः अभद्रम् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्मात्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोगस्तागश्चग्रेवायव्यान् आरण्यान् ग्राम्याश्च ये तस्माज्ञात् सर्वहुतः वृषस्तामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यदुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादनः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिराव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराधन्यः कृतः भूरूतदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसेदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः स्वचन्द्रे यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टाभिददद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्धः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्याजपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे त्रेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मणिषाणा अमुम् मणिषाणा सर्वम् मणिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मे खण्डेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणागुम् राजा अप्येषागस्तवतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आरथामि तथा हि तत् खण्फण्णसि ॐ शान्ति 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 ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् ग्रावम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्णम् तु विमघम् तु विमात्रमवो न हित्वा शूरदेवानवर्ता शोधिसन्तम् भीमम् नगाम् पालयन्ते एतोर्विन्द्रम् सवामेशानम् वस्वस्वराजम् नरातसामध्यशन्नः प्रस्तोषदुपकारिसत्सवत्सामगीयमानम् अभिरातसा जुगुरत् आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाग् ओ उपक्रमस्वा भरत शतादृष्णो जना अथाशोष्टरस्य वेदः इन्द्रयमुनुते अस्ति वाजो विप्रे विश्वरत्वः अस्माभिः सुतम् सनुहे सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशे समक्षो जरन्ते गणपतिम् भवामहे कविम् कवीनामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणस्पद आन शृण्वन् नोतिभिः सेदसादनम् निशुते गणपते गणेषु त्वामा उर्वि प्रथमम् कवीनाम् नरुते त्वक्रियते किञ्च नारे महामर्कम् भगवन् चित्रमच्च अभिज्ञानो भगवन्नादमानान् सखे बोधि वसुपते सखे रणम् कृतिरणगच्छत्य सुष्मा भक्ते चिदाभजाराये अस्मान् शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्या पूष्णो हस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवच्चसायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्या पूर्णो हस्ताभ्याम् सरस्वत्यैर्भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् भूष्णो हस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णो हस्ताभ्यागुम् सरस्वत्ये वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते स्त्वा साम्राज्येनाभिषिञ्चामि आयुदाशास्ते सुप्रजास्त्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान्देव यद्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यात् तदज्ञात् तदस्मै देवारासन्ता द्रुपदादिवेन मुमुचानः स्विन्नस्नात्वीमलादिवा भूतम् पवित्रेणेवाज्यम् आपश्युन्धन्तु मैनसः भोर्भुवत्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्ति। ॐ ईशावास्यमिदगुं सर्वं यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जेतामागृह कस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगुं समाः एवं त्वयिनान्यते तोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोका अन्धेन तमसागताः तागस्ते प्रेत्याभिगच्छन्ति ये केजा महनोचनाः अने जदेकं मनसो जवेयो नैन देवा ब्रुवन् पूर्वमर्षत् तद्धावतो नान्यत्ते तिष्ठत्तस्मिन् नपोमा तरिष्वादधाति तदे जति तन्ने जति तद्धूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यते सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः शोक एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमवणवस्ताविलगुम् शुद्धमपापरिद्धम् कविर्मनीषे परिवो स्वयम्भोर्यात्यधोर्धान्व्यददाच्छाश्वदेभ्यः समाभ्यः अन्धम् तमप्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोय उविद्यायाम्रताः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुमधीराणाम् येनस्तद्विचक्षिरे विद्याञ्च विद्याञ्च यस्तत्वेदो भयगुंसः अविद्यया मृत्युम् ते द्वा विद्ययामृतमश्नुते अन्धम् तमप्रविशन्ति ये सम्भोरिमुपासते ततो भूय इव ते तमोय उसम्भोत्यागम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् इति शुश्रुमधीराणाम् येनस्तद्विचक्षिरे सम्भोतिम् च विनाशम् च यस्तत्वेदो भयगम् सः विनाशेन मृत्युम् ते द्वा सम्भोत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्याभिहितम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्ने करिषेयमसूर्यः प्राजा पच्यव्योहरश्मे समोहते जोयते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेतम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्ने लय सुपथा राय ये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोर्जस्मज्जुहुराणमे नो भूयिष्ठाम् ते नम उक्तिम् विदेव ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीलशम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् परम् विश्वतः परमा नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्याद्वेश्वरगुम् साश्वरगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायण परः नारायण परम् ब्रह्मतत्त्वम् नारायण परः नारायण परो ध्याता ध्यानम् नारायण परः यच्च किञ्चिज्जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिष्यतः सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रदेकाशगम् हृदयम् चाप्यदोमुखम् अधो निश्चामितस्यान्ते नाभ्यामुपरिदृष्टते ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् भक्त्या कोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाचिर्विश्वतोमुखः सोऽग्रभुग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्यगोर्ध्वमदशायीरश्वयस्तस्य सन्तदा सन्तापयति सन्देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अनीयोर्ध्वा व्यवस्थितः नीरतो यदमध्यस्था विद्युल्लेके भवास्वरा नीवारशोकवत्तन्वीपीराभा स्वद्यणोपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिस्येन्द्र सोऽक्षरः परमस्वरान् कृतगम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ओर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विश्वप्रचोदयात् राजादिराजाय प्रसन्नसाहिरे नमो भयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहे शाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।